इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः जतिन शर्मा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य दृश्यश्रव्यान्तर्जालीयमाध्यमेन विकसित भारत संकल्पाभियानस्यान्तर्गतं नशामुक्त युव अभियानस्य शुभारम्भं करिष्यति। जनभागीदारीत्येतस्याभियानस्य शतसप्ताह समापनोपलक्ष्ये एतत् अभियानं प्रवृत्यते। अस्मिन् कार्यक्रमे देशस्य 10,000+स्थानेभ्यः युवानः सहभागं करिष्यन्ति। अस्य पदक्षेपस्य उद्देश्यं युवकान् मादकद्रव्यदुरुपयोगात् दूरं स्थातुं प्रेरयितुं तथा स्वसमाजेषु सकारात्मक सामाजिक परिवर्तनस्य प्रवर्तकान् भवितुं प्रोत्साहयितुं च इत्यस्ति। प्रधानमन्त्री नरेन्द्रमोदी विज्ञान प्रौद्योगिकी क्रीडा क्षेत्रेषु सफलतां प्राप्तवतां भारतीय यूनां प्रशंसाम् अकरोत्। सहैव तान् जलसंरक्षणे, प्राकृतिक सम्पदः संवर्धने, भारतीय कला वस्तूनां संरक्षणे च योगदानं दातुम् आहूतवान्। सः ह्यः मैसूरुनगरे स्वामी विवेकानन्द सांस्कृतिक युवकेन्द्रस्य विवेकस्मारकस्य उद्घाटनानन्तरम् एतद् अवदत्। प्रधानमन्त्री अवदत् यत् स्वामी विवेकानन्दस्य विचाराः युवकानां सशक्तिकरणं राष्ट्रनिर्माणं च प्रोत्साहयन्ति। उज्बेकिस्तानस्य विदेशमन्त्री सईदोव बख्तियार ओदिलोविच इत्येषः अद्यारभ्य अस्य मासस्य 5 दिनांकपर्यन्तं भारतस्य आधिकारिक यात्रायां भविष्यति। विदेशमन्त्रालयानुसारं स्वयात्रावधौ असौ राष्ट्रपति पदासीनया द्रौपदी मुर्मू वर्यया सह शिष्टाचारोपसंगमार्थं मेलिष्यति। सहैव विदेशमन्त्रिणा डॉ एस जयशंकरेण सह अपि वार्तालापं करिष्यति। सः नवदिल्ल्याम् आयोजिते वाणिज्यमञ्चे अपि भागं ग्रहीष्यति। केन्द्रप्रशासनेन करविभागान्तर्गतम् अतिरिक्त अंशभागत्वेन राज्यसर्वकारेभ्यः 21,99,00,000,00,000 रूप्यकाणि वितरितानि। वित्तमन्त्रालयेन एकस्मिन् वक्तव्ये प्रोक्तं यत् अस्य अतिरिक्तांशभागस्य उद्देश्यं राज्येभ्यः द्रव्यगतविकासव्ययं वर्धयितुम् अवसरं प्रदानम् इत्यस्ति। मन्त्रालयपक्षतः निस्सारितस्य राज्यक्रमस्य विवरणानुसारं उत्तरप्रदेशः सर्वाधिकम् 28,21,000,00,000 रूप्यकाणि अलभत। तदनन्तरं बिहारराज्यं 45,48,00,000 रूप्यकाणि अथ च मध्यप्रदेशराज्यं 10,08,00,000 रूप्यकाणि प्राप्नोत्। पश्चिमबंगालराज्यं 66,87,00,000 रूप्यकाणि, महाराष्ट्रराज्यं च 22,07,00,000 रूप्यकाणि अलभत। ग्लास्गोनगरे प्रवर्तमानासु राष्ट्रमण्डलक्रीडासु भारतम् 41 पदकैः सह पदकतालिकायां चतुर्थस्थानम् अधिगतवत्। भारतस्य पदकतालिकायाम् अधुना 13 स्वर्णपदकानि, 17 रजतपदकानि, 9 कांस्यपदकानि च सन्ति। भारतस्य नूतनपदकं 5,000 मीटरमितायां धावनस्पर्धायां गुलवीरसिंहेन प्राप्तं कांस्यपदकम् अस्ति। मुष्टामुष्टिस्पर्धासु भारतेन उत्कृष्टं प्रदर्शनं कृतं, यत्र 7 स्वर्णपदकानि तथा 3 रजतपदकानि प्राप्तानि। पैरा एथलेटिक्स इत्येतस्मिन्नपि भारतेन ऐतिहासिकी उपलब्धिः सम्प्राप्ता। पुरुषाणां शॉट्पुट F57 इत्येतस्यां स्पर्धायां सोमन राणा स्वर्णपदकं, शुभम जुयालः च रजतपदकं प्राप्तवान्। भारतर्तु विज्ञान विभागेन अद्य कर्नाटक, केरल, माहे, नागालैंड, मणिपुर, मिजोरम, त्रिपुरा, राजस्थान, उपहिमालयीय पश्चिम बंगाल, सिक्किमेषु अतिवृष्ट्यै नारंगवर्णीया संचेतना प्रसारिता। तथैव दिल्ली, हरियाणा, पंजाब, चंडीगढ़, उत्तराखंड, हिमाचल प्रदेश, जम्मू कश्मीर, लद्दाख, अरुणाचल प्रदेश, गुजरात, कोंकण, गोवा, मध्य प्रदेश, ओडिशा, अंडमान निकोबार द्वीप समूहेषु अपि अतिवृष्टिः व्यक्तीकृता इति वार्ताः।